इमामोष प्रभृतिम् सातये धास्वच्छस्वदूतिभिर्जातमानः सुते सुदेवावृधे वर्धनेभिर्यः कर्मभिर्महद्भिः शुश्रूतोऽभूत् इन्द्रायतो वा प्रतिभो विदानाभिर्येभिर्वृषपर्वाविहायाः रजम् यमानान् प्रतिशुर्भाजेन्द्रपि लवृषधूतस्य कृष्णाः पावर्धस्वतवघासुदास इन्द्रसमास प्रथमा कुते मे यथावेव पूर्व्याम् इन्द्रसोमाम् एव पायि पन्यो अद्यानवीयान् मामत्र भृजने विरप्सु उग्रम् सवः पत्यते धृष्मोजाः नारायण्याद पृथिवी जनैनम् यत्सोमा सोहर्यस्वमन्दन् माम् उग्रो वा मृधे वीर्याय समाचक्रे वृषभः काव्येन इन्द्रो भगो वाजदा अस्य गावः प्रजायन्ते दक्षिणा अस्य पूर्वीः प्रयत्सिन्धवः प्रसवम् यथा यन्नापः समुद्रम् भत्स्येव जग्मुः अतश्चिदिन्द्रः सदा सोवरीयान्यदीम् सोमः प्रणति दुग्धोऽंसुः समुद्रेण सिन्धवो जातमाना इन्द्रायतो वंसुषूतम् भरन्तः अंसुम् दोहन्ति हस्तिनो भरित्रैर्मध्वः पुनन्ति धाराजा पवित्रैः तदायेव कुक्षयः स्वमधानाः समी विव्याच समना पुरूणि अन्नायदिन्द्रः प्रथमाव्यास वृत्रम् च घन्वावृणीत सोमम् आतुघरमागीरे तत्परिष्ठाद्विद्मा हि त्वा वसुपतिम् वसूनाम् इन्द्रयत्ते माहीनम् तत्र मस्त्यस्मभ्यम् तद्धर्यस्वप्रयम् धि अस्मे प्रयम् धि मघवन् ऋजेषन्निन्द्र राजो विश्ववारस्य भूरेः अस्मे सतम् सरदो जीवसे धास्मे वीराञ्च स्वद इन्द्रसि प्रिम् सुरम् गोमेव मघवानमिन्द्रमस्मिन् भरे नृतमम् वाच सातौ शृण्वन्तमुग्रमूतये समत्सुघ्नन्तम् वृत्राणि सञ्चितम् धनानाम्